तृतीय स्कंध अथ तृतीय अध्याय उद्धव उवाच ततः सयागत्य पुरं स्वपित्रोर्चिकीर्षया शम्बलदेव संयुतः निपात तुंगाद्रिपुजूथनाथं हतं व्यकर्षत् व्यसुमोज सर्व्यां सन्दीपने सकृत् प्रोक्तं ब्रह्माधित्य सविस्तरम् तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् समाहुता भीष्मकन्यया ये श्रियः सवर्णेन बुभूषयैषां गान्धर्ववृत्त्या मिषतां स्वभागं जहरे पदं मूर्ध्नि दधत् सुपर्णः ककुद्मतो विद्धनशोदमित्वा स्वयंवरे नाग्नजितिमुवाह तद्भग्नमानान् गृह्यतोज्ञान् जघ्ने क्षतः शस्त्रभृतः स्वशस्त्रैः प्रियं प्रभुर्ग्रामैव प्रियाया विधित् सुरार्च्छद्युतरुं जदर्थे वज्राद्रवत्तं सगुणोरुषान्ध क्रीडा मृगो नूनमयं वधूनां सुतं मृधेखं वपुषाग्रसन्तं दृष्ट्वा सुनाभुन्मथितं धरित्र्या आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तः पुरमाविवेश तत्राहृतास्ता नरदेव कन्यः कुजेन दृष्ट्वा हरिमार्त बन्धुम् उत्थाय सद्यो जगृहु प्रहर्ष व्रीडानुराग प्रहितावलोकैः आशां मुहूर्ते कस्मिन्नानागारेषु योषिताम् सविधम् जगृहे पाणिन् अनुरूपः स्वमायाम् तास्वपत्यान्यजनयद् आत्मतुल्यानि सर्वतः एकैकस्याम् दश दश प्रकृते बिबुभूषया कालमागधसाल्वादिन् अनीकैरुन्धतः पुरम् अजिघ्नत् स्वयं दिव्यं स्वपुंसां तेजयादिशत् संबरं द्विविधं बाणं मुरं बलबलमेव च अन्यांश्च दन्तवक्त्रादीन् अवधित् कांश्च घातयत् अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् चचाल भूः कुरुक्षेत्रं जेषामा पततां बलैः सकर्ण दुःशासन सौबलानां कुमन्त्रपाकेन हतः श्रियायुषम् सुयोधनं सानुचरं शयानं भग्नोर्मुर्व्यां ननन्द पश्यन् कियान् भूयं क्षपितोरुभारो जद्रोणभीष्मार्जुन भीममूलैः अष्टादशाक्षौहिणिको मदंसै आस्ते बलं दुर्विषहं जदूनां मिथो जदैषां भविता विवादो मध्वां दाताम्रविलोचनानां नैषां वधोपायान तोन्यो मयुद्यतेऽन्तर्दधते स्वयं स्म एवं संचिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् नन्दयामास सुहृद साधूनां वर्त्मदर्शयन् उत्तरायां धृतः पूर्वोर्वंशः साध्वभिमन्युना सवै द्रोणस्त्र संच्छिन्न पुनर्भगवता धृतः अयाजयद्धर्मसुतम् अश्वमेधस्त्रिभिर्विभु सोपीक्ष्मा मनुजय रक्षन् रेमे कृष्णमनुव्रतः भगवानपि विश्वात्मा लोकवेदपथानुगः कामांसि सेवे द्वारवत्यामसक्तः साङ्ख्यमास्थितः स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया चरित्रेणानवद्येन श्रीनिकेतेन चात्मना इमं लोकममुं चैव रमयन् सुतरां यदुन् रेमे क्षणदया दत्त क्षणस्त्री क्षणसहृदः तस्यैवं रममाणस्य संवत्सरगणान् बहून् गृहमेधेषु योगेषु विरागः समजायत दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् को विश्रम्भेत योगेन जोगेश्वरमनुव्रतः पुर्याम् कदाचित् क्रीडद्भिर्जदुभोजकुमारकैः को पिता मुनयशेपुर्भगवन्मत्कोविदः ततः कतिपयैर्माशैर्वृष्णिभोजान्धकादयः जयुः प्रभासम् संहृष्टा रथैर्देवविमोहिताः तत्र स्नात्वा पितृन् देवान् ऋषिन् चैव तदम्बसा तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा दुः हिरण्यम् रजतम् सज्जाम् वासान् सजिनकम्बलान् जानम् रथान् निभान् कन्यान् धराम् वृत्तिकरीमपि अन्नम् चोरुरसम् तेभ्यो दत्त्वा भगवदर्पणम् गो विप्रार्था शवः शूरा प्रणेमु भूमिमूर्धभिः। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् द्वितीयस्कन्धे विद्रोधौ संवादे तृतीयोऽध्यायः।